अथ केतु पञ्चविंशति नाम स्तोत्रम्। केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् पलाशधूम्रः सङ्काशश्चित्रयोग्योपवीतधृक् तारागणविमर्दी च जैमिनेयो ग्रहाधिपः। पञ्चविंशति नामानि केतोर्यः सततम् पठेत् तस्य नश्यति बाधा च सर्वकेतुप्रसादतः धनधान्य पशूनाम् च भवेद्वृद्धिर्न संशय। इति श्रीस्कन्दपुराणे केतु पञ्चविंशति नाम स्तोत्रम् सम्पूर्णम्।